श्री सूर्यस्य प्रातः स्मरणम्। प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मण्डल मृचोधतनुर्यजुंषि सामानियस्य किरणाः प्रभवादिहेतुं ब्रह्माहरात्मकमलक्षमचिन्त्यरूपम् प्रातर्नमामि तरणिं तनुवाङ्मनोभिः ब्रह्मेन्द्रपूर्वकसुरैर्नतमर्चितं च वृष्टिग्रमोचन विनिग्रह हेतुभूतम् त्रैलोक्यपालन परं त्रिगुणात्मकं च प्रातर्भजामि सवितार मनन्त पापौघशत्रुभय रोगहरं परं च तं सर्वलोककलनात्मककालमूर्तिं गोकण्ठबन्धन विमोचनमादि लोकत्रयमिदं भानुः प्रातः काले पठेत्तु यः स सर्वव्याधिर्निर्मुक्ता परं सुखम् अवाप्नुयात् इति श्रीसूर्यस्य प्रातः स्मरणं सम्पूर्णम्।